नमो तस्से भगवतो अरहतो सम्मा संबुद्धस्से नमो तस्से भगवतो अरहतो सम्मा संबुद्धस्से नमो तस्से भगवतो अरहतो सम्मा संबुद्धस्से पूरेन्त पारमी सब्बे सब्बे पच्चेक नायक शिवली गुण तेजेन परितं तं बनामयेन जालीति जालितां आयु स्वाहा बुद्ध स्वामी बुद्ध सत्यं मधुमुत्तरो नाम जिनो शब्दं मे तु जग्मायितो सतसहस्रमेकप्ये उपज्जिनायको शिवली च महातेरो सौरवो पच्चयादिनं पियो देव मनुष्यानं पियो ब्राह्मणमुत्तमो यो नागसुपन्नानं दिनीन्द्रियं नमामहं नासं सीमो च मे शीसं नानाजालीति सञ्जलिं सदेव मनुष्यपूजितं सब्बलाभा उपेन्तु मे सत्ताहं द्वारमूलोऽहं महादुःखसमर्पितो माता मे चन्ददानेन एव मासिषु दुःखिता केशेषु दिग्धमादेषु अर्हद्धम पापुनि देवमानुत्सा च पच्चयानुपनेत्ति मां मधुमुत्तरनामं च विपश्यं च विनायकं सम्पूजयिं प्रमुदितो पच्चयेहि विशेषतो ततो ते संविशेषेन कम्मानमि पुरुत्तमं लाभं लभामि तद्वत् वणिगामि जले तले तदा देवोपनीते हि ममत्ताय मामति पच्चये हि महावीरो सत्सङ्गो लोकनायको उपाट्लितो मया बुद्धो गन्त्वा रेवत मद्दस ततो जेतवनं गन्त्वा एतदग्गेटपेशिमं रेवतं दर्शनत्थाय यदा याति विनायको तिसभिक्कुसहस्रे हि सः लोकग्नायको लाभिनं शिवलीयज्ञो मम शिष्येषु भिक्खवो सब्बलोकहितो सत्ता कित्तयि परिशासु मं किलेशा जापिता मह्यं भवा सभ्येदमुहता नागोच बन्धनं चेत्त्वा विहरामि अनासवो स्वागतं वत मे आदि बुद्धसिद्धस्य सन्धिकीर्तिसो विद्या अनुपत्तो कथं बुद्धस्य शासनं पटिसंविदातस्सो च विमुक्खापि च अट्ठमो जलविन्यासज्जिकता कथं बुद्धस्य शासनं बुद्धपुत्रो महातेरो शिवलीजिनसावको उग्रतेजो महावीरो तेजसा जिनशासनं रक्खं कशीलतेजेन धनवन्तो यशस्विनो एवं तेजानुभावेन सदा रक्खन्तु शिवली कपट्टा इति बुद्धस्य बोधिमूले निषीदयि मारसेन प्रमर्दन्तो सदा रक्खन्तु शिवली दशपारमितपत्तो सब्बजीजिनशासने गोतमं सक्यबुद्धो देहेरेण मम शिवली महा ශාවකා අසීතින් සුපුන්නතෝ යසදස්සි සෝ භවභෝගේ අග්ගලාභී සුඋත්තමෝ තේන දේවදී එවං අචින්තියා බුද්ධා බුද්ධ ධම්මා අචින්තියා අචින්තියේසු පසන්නානං විපාකෝ හෝති අචින්තියෝ තේ සංවජ්ජේන සීලේන කන්ති මෙත්ත බලේන ච තේපි ත්වං අනුරග්ගන්තු සබ්බ දුක්ඛ විනාශනං තේ සංසජ්ජේන සීලේන කන්ති මෙත්ත බලේන ච තේපි ත්වං අනුරග්ගන්තු සබ්බ භය විනාශනං තේ සංසජ්ජේන සීලේන කන්ති මෙත්ත බලේන ච තේපි ත්වං අනුරග්ගන්තු සබ්බ රෝග විනාශනං